संस्कृत रीडिंग टू शकुंतला कथा पेज 393। पुरा स्वर्गलोके इंद्रो देवानां नृपो भवत् यथा पृथिव्यां नराणां नृपा भवन्ति तथैव स्वर्गलोके देवानां नृप इन्द्रः। तस्य सभायां बह्व्यो देवकन्याः प्रतिदिनं नृत्यन्ति स्म। तासु देवकन्यासु मेनका नाम काचित् सुन्दर्यवर्तत। कदाचित् सा स्वर्गलोकात् पृथिवीमगच्छत्। यदा सा पृथिव्यामभ्राम्यत् तदा सा कस्मिन्नपि वने कञ्चन मुनिमपश्यत्। सा तस्य मुने समीपं गत्वा चिरं तस्य मुखमैक्षत। स मुनिर्नेत्रे निमील्येश्वरमेव चिन्तयति स्म। तस्य मुनेः पुरतः स्थित्वा मेनका तमपृच्छत्, हे मुने, कस्त्वम्? किं तव नाम? त्वं कं चिन्तयसि? त्वं सुन्दरो भवसि। त्वां दृष्ट्वाहं सुखं लभे। अपि त्वं मां दृष्ट्वा सुखं लभसे इति। तस्या नार्यास्तद्वचनं श्रुत्वा स मुनिस्तां नारीमैक्षत। अतीव सुन्दरं तस्या मुखं शरीरं चीक्षित्वा स मुनिरीश्वरमपि व्यस्मरत्। सोचिन्तयत्, कैषा नारी? नाहमेतां कदाप्यत्र वन ऐक्षे। एषा अतीव सुन्दरी। एतस्या मुखं चन्द्र इव शोभते। यद्येषा मे भार्या भवेत् तर्ह्यहमेतस्याः कृत ईश्वरमपि त्यजेयम् इति चिन्तयित्वा स मुनिस्तां नारीमभाषत। हे नारी, अहं विश्वामित्रो नाम मुनिः। पुराहं नृपो वर्ते। किं त्वीश्वरं द्रष्टुमहं वनमागत्य तपः करोमि? अहं चिरन्न कामपि नारीमपश्यम्। तथाप्यद्य त्वां दृष्ट्वाहं तुष्यामि। अहं तुभ्यमेवाद्य स्पृहयामि। त्वं मे भार्या भवेति त्वामद्याहमर्थये। त्वया साहं सुखं लभेय। मया च सह त्वमपि सुखं लभेथाः। मम तपसा प्रसन्न ईश्वर एव मम भक्तेरेतत्फलं मह्यं यच्छतीत्यहं मन्य इति। तस्य मुनेस्तन्मधुरं वचनं श्रुत्वा प्रसन्ना सा मेनका तेन मुनिना सहैव तस्मिन् वने वसत्। अथ तयोरेका कन्या जायत। यदा सा कन्या जायत तदैव विश्वामित्रो मुनिर्मेनकां त्यक्त्वान्यत्रागच्छत्। तदैव स्वर्गलोक इन्द्रो मेनकामस्मरत्। क्व सा मेनका? सा स्वर्गलोकं पुनरागत्य मम सभायां नृत्यत्विति। ततः सा मेनकापि स्वां कन्यां पृथिव्यां वन एव त्यक्त्वा स्वर्गलोकमगच्छत्। तदा तां वने पतितां बालान् दृष्ट्वा सर्वे शकुन्तास्तस्याः समीपमागच्छंस् तस्यै च स्वमन्नं जलं चायच्छन्। एवं शकुन्तास्तामरक्षन् सा चावर्धत। अथैकदा कण्वो नाम मुनिस्तां बालिकां वने विन्दत्। स च तां स्वमाश्रमं नीत्वा तामपालयत्। स कण्वो मुनिरेव मे जनक इति सा मन्यत। स च तां स्वां कन्यामन्यत। यदा सा कन्या तरुण्यभवत् तदा दुष्यन्तो नाम नृपस्तां कण्वस्य मुनेराश्रम ऐक्षत। तान् दृष्ट्वा प्रसन्नो दुष्यन्तो नृपस्तामार्थयत्, किं तव नाम? त्वां दृष्ट्वा प्रसन्नोऽहं त्वां मे भार्यामिच्छामीति। ततः सा वदत्, हे नृप, मम नाम शकुन्तलेति। यदि मम पुत्र एव त्वदनन्तरं नृपो भवेत् तर्ह्येवाहं तव भार्या भवेयमिति। तथा भवत्विति दुष्यन्तः शकुन्तलामभाषत। ततः सा तस्य भार्या भवत्। तयोर भरतो नाम पुत्रो जायत स एव दुष्यन्तादनन्तरं नृपो भवत् भरतो यस्य देशस्य नृपः स भारतो देशः तस्माज्जनास्तन्देशं भारतदेशं वदन्ति।